अर्धवत् अधातुः अप्रत्ययः प्रातिपदिकम्। अर्धवत् अर्थः अस्यास्ति च अर्धवत् शब्दस्वरूपम् इत्यज्ञहार्यम्। अर्धवत् शब्दस्वरूपम् अधातुः अप्रत्ययः अर्धवति इति शब्दस्वरूपमित्यस्य विशेषणं भवति। अधातुः नाम धातु भिन्नः, अप्रत्ययः प्रत्ययभिन्नः। प्रत्ययग्रहणे तदन्ताग्राह्यः इत्युक्तत्वेन प्रत्ययान्तभिन्नम्। प्रत्ययभिन्नं धातुं प्रत्ययं प्रत्ययान्तञ्च वर्जयित्वा यत् शब्दस्वरूपं धातु भिन्नं भवति, प्रत्ययभिन्नं भवति, प्रत्ययान्तभिन्नञ्च भवति। तादृशम् अर्धवत् शब्दस्वरूपम्, अर्धवत् यत् शब्दस्वरूपं तस्य प्रातिपदिकसंज्ञा भवति। धन इत्युक्ते धन इति शब्दस्वरूपस्य अर्धवत्वेन तस्यैव प्रातिपदिकसंज्ञा। स च न धातुः नापि प्रत्ययः नापि प्रत्ययान्तः, तादृशस्यैव शब्दस्य तत्र प्रातिपदिकसंज्ञा। यदि अर्धवत् इति न स्यात् तर्हि धन इत्यत्र प्रतिवर्णं धकार प्रातिपदिकसंज्ञा स्यात्, धकारस्य प्रातिपदिकसंज्ञा शब्दः नाम यदुच्चार्यते स एव शब्दः। वर्णसमुदायः इति खलु नास्ति नियमः। अह इत्युक्ते अकारशब्दः विद्यते, केवल अकारविशिष्टः अह विष्णुः इति, उः शम्भुः इति खलु उच्यते। अतः प्रतिवर्णं तत्र प्रातिपदिकसंज्ञा स्यात्। तेन धनम् इत्यत्र धकारस्य झलाञ्जसन्ते चनेन ज्यस्तं भवति। धनमित्यत्र धकारात् परे सुप्रत्ययः भवति, हलिङ्गादिना सुलोपः ढ इति विद्यते, पदं भवति खलु झलाञ्जसन्ते चनेन ज्यस्तं स्यात्। नकारात् परे सुप्रत्यये सुलोपे कृते न इति भवति, तस्य पदत्वेन प्रादिकान्तं गत्वं तदन्तस्य लोपः स्यात् इति लोपः स्यात् इति रूपस्य विकृतिः प्राप्नोति। अतः कस्य सर्वनाम प्रातिपदिकसंज्ञा भवति इत्युक्ते अर्धवत् यत् शब्दस्वरूपं तस्यैव प्रातिपदिकसंज्ञा भवति इत्यर्थः। एवम् अहन्न इति विच्यते, अहन्न इति विच्यते नाम हनधातोः लङि प्रथमपुरुषैकवचने अहन्न इति रूपं भवति। अहन् अहताम् अघ्नन्न इति तत्र अहन् इति अर्थवत् शब्दस्वरूपं, न प्रत्ययः नापि प्रत्ययान्तः, अतः तत्रस्यापि प्रातिपदिकसंज्ञा स्यात्। यदि प्रातिपदिकसंज्ञा स्यात् तर्हि तस्य तस्मात् सुप्रत्यये सुलोपे अहन् इत्यस्य पदत्वेन न लोपप्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपः स्यात्। अतः अधातुः इति वक्तव्यं, धातुभिन्नस्यैव प्रातिपदिकसंज्ञा। एवम् अप्रत्ययः इत्यस्य अभावे राम सु इति विद्यते, रामशब्दस्य प्रातिपदिकसंज्ञा विद्यते, सुप्रत्ययस्यापि प्रातिपदिकसंज्ञा स्यात्। सु इति एकत्वरूपार्थे भवति खलु, नाम सु इत्यस्य एकत्वमर्थः अर्धवच्छब्दस्वरूपमेव, धातुभिन्नं प्रत्यान्तमपि न भवति, अतः तस्यापि प्रायोगिकसंज्ञा प्राप्नोति। एवञ्च ततः सुप्रत्ययः स्यात्। एवम् अनवस्थादोषो दोषः स्यात्। अतः अप्रत्ययः इति वक्तव्यं, प्रत्ययभिन्नस्यैव प्रातिपदिकसंज्ञा भवति। एवम् अप्रत्ययान्तमपि स्यात् शब्दस्वरूपम्। अन्यथा रामस् इति विद्यते, सुप्रत्ययविशिष्टः यः रामस् इति विद्यते तदपि अर्थवत् शब्द स्वरूपं रामस इच्छपि भातु भिन्नं प्रत्यय भिन्नं च अतः रामस इति समुदायस्यापि प्राज्ञिक संज्ञा प्राप्नोति तद्वारणार्थं प्रत्ययान्त भिन्नं इति वक्तव्यम् एवञ्च अध अधातुः धातु धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्धवत् शब्दस्वरूपं यत् तस्यैव प्रातिपदिकसंज्ञा भवति चर्थः सः धातुः न स्यात् प्रत्ययः न स्यात् प्रत्ययभिन्नश्च न स्यात् अर्धवांश्च स्यात् शब्दः तादृशस्यैव शब्दस्य प्रातिपदिकसंज्ञा भवति चर्थः धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्धवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् इत्यर्थः एवं तर्हि दाशरथिः रामः इति विद्यते दाशरथिः इत्यस्य दशरथस्यापत्यं पुमान् इति दशरथशब्दात् इये प्रत्यये दाशरथिः इति रूपम् रमन्ते योगिनः अस्मिन्निति रामः इति खलु भवति एवञ्च राम इत्यनयोः प्रत्ययान्तत्वेन प्रातिपदिकसंज्ञा न स्यात् ततः सुप्रत्ययः न स्यात् इति चेत् उच्यते कृत्तद्धितसमासाश्च कृत्तद्धितान्तौ समासाश्च तथा स्युः इति कृत् तद्धितयोः प्रत्ययत्वेन प्रत्ययग्रहणे तदन्ताग्राह्याः इति न्यायेन तत्र कृतत् कृदन्त तद्धितान्तयोः इत्यर्थो भवति उक्तं संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति संज्ञाविधिस्थले सति प्रत्ययग्रहणेऽपि तदन्तविधिर्न भवति इत्युक्तम् सुप्तिङन्तं पदमिति विद्यते तत्र अन्तग्रहणं कुतः सुप्तिङ् पदम् इत्यस्तु सुपः तिङ्गश्च प्रत्ययत्वेन प्रत्ययग्रहणे तदन्ताग्राह्याः इति न्यायेन सुबन्तं तिङ्गन्तं च पदसंज्ञं स्यात् इत्यर्थः भवत्येव पुनः तत्र अन्तग्रहणं कुतः अन्तग्रहणं ज्ञापयति संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति संज्ञाविधिस्थले यद्यपि प्रत्ययग्रहणं स्यात् तथापि तदन्तग्रहणं न विद्यते एवञ्च अत्र कृत्तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा विधीयते खलु संज्ञाविधिस्थले कृत्तद्धितयोः प्रत्ययत्वेऽपि तदन्तग्रहणं न स्यात् खलु इति चेत् उच्यते अत्र यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति विद्यते तथाप्यत्र तदन्तग्रहणं वक्तव्यम् प्रातिपदिकसंज्ञा केवलं कृत्प्रत्ययस्य केवलं तद्धितप्रत्ययस्य यदि विधेयेत तर्हि तस्य वैयर्थ्यमेव स्यात् कुतः केवलकृत्प्रत्ययस्य प्रत्ययानां केवलतद्धितप्रत्ययानां च प्रयोगाभावात् न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः इति विद्यते केवलप्रकृतेः प्रयोगः नास्ति केवलप्रत्ययस्य च प्रयोगः न हि दृश्यते तथा च कृत्प्रत्तद्धितप्रत्यययोः केवलयोः प्रातिपदिकसंज्ञाविधानेन किं प्रयोजनम् यदि प्रयोगः स्यात् तर्हि खलु स्वाज्युत्पत्तिः अन्यथा स्वाज्युत्पत्तिर्भवत् न भवति स्वाज्युत्पत्तेः अभावे काव्यसंज्ञाविधानमपि व्यर्थं स्यात् अतः तत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति यद्यपि प्रतिषेधः विद्यते तथाप्यत्र तदन्तग्रहणं वक्तव्यम् एवञ्चात्र कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञास्युः कृत्प्रत्ययान्तस्य तद्धितप्रत्ययान्तस्य समासस्य च प्रातिपदिकसंज्ञा विद्यते इति वक्तव्यम्। अत्र सूत्रे समासग्रहणं कृतः राजन् नस पुरुषासु इति विद्यते सुब्लुक् राजन् नस पुरुषासु इत्यतः सुब्लुक् राजन् पुरुषा विद्यते अस्य समासत्वेन प्रातिपदिकसंज्ञा उच्यते।
तदर्थं खलु कृत्तद्धितेषु सूत्रे समासग्रहणम्
राजन् नस पुरुषासु इति अर्थवच्छब्दस्वरूपं धातुः न भवति प्रत्ययः न भवति प्रत्ययान्तश्च न भवति तथा च अत्र प्रातिपदिकसंज्ञा पूर्वसूत्रेण सिद्ध्यत्येव अर्थवधात्र प्रत्ययप्रातिपदिकम् इति नहि। अत्र पुरुषासु इति खलु विद्यते सुप्रत्ययान्तो भवति खलु सुप्रत्ययः जातः खलु एवञ्च राजन्यङ्गस्य पुरुषासु इत्यत्र सुप्रत्ययः अन्ते विद्यते अतः प्रत्ययान्तः खलु इत्येते प्रत्ययान्त इत्युक्ते प्रत्ययग्रहणे यस्मात् स विहितः स तदादेः तदन्तस्य ग्रहणमिति न्यायः विद्यते। प्रत्ययान्तः प्रत्ययान्तः इत्युक्ते सः प्रत्ययः यस्याः प्रकृतेः परे विधीयते प्रकृतिमारभ्य प्रत्ययपर्यन्तम् एव तत्प्रत्ययान्तमिति वक्तव्यम्। अत्र सुप्रत्ययः कस्मात् विहितः पुरुषशब्दात् विहितः एवञ्च पुरुषासु इत्येव सुप्रत्ययान्तो भवति न तु राजन् नसु पुरुषासु इति समुदायः। अवयवस्य प्रत्ययान्तत्वेपि समुदायस्य प्रत्ययान्तत्वाभावात् प्रत्ययान्तभिन्नः अर्थवांश्च अतः तत्र समासः अर्धवधातृप्रत्ययप्रातिपदिकम् इत्यनेनैव सिद्ध्यते। पुनः अत्र सूत्रे समासग्रहणं किमर्थम् इति चेत् सिद्धे समारम्भः नियमार्थः सिद्धे पुनः आरम्भः कुतः नियमार्थः। अत्र कोऽयं नियमः इति चेत् उच्यते पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम्। कोऽयं नियमः इति चेत् यत्र सङ्घाते पूर्वोभागः पदं तस्य चेद् भवति तर्हि समासस्यैव यस्मिन् समुदाये पूर्वभागः पदं भवति तादृशसमुदायस्य यदि प्रातिपदिकसंज्ञा स्यात् तर्हि समासस्यैव भवति। अर्थात् राजन्यङ्गस्य पुरुषासु इति समुदायः विद्यते तत्र पूर्वभागः राजन्यङ्गस् इति तत् पदमेव तादृशस्य समुदायस्य यदि समासे प्रातिपदिकसंज्ञा प्राप्नोति तर्हि केवलं समासस्यैव भवति इति अत एव राजन्यङ्गस्य पुरुषासु इत्यस्य प्रातिपदिकसंज्ञा। नियमः किं करोति अन्यत्र वारयति नियमकरणेन वाक्यस्थलेन प्रातिपदिकसंज्ञा रामो वनमगात् इति विद्यते समुदायः रामो वनमगात् इति शब्दस्वरूपमेव वाक्यमपि शब्दमेव भवति तच्च अर्धवच्छब्दस्वरूपं धातुभिन्नं प्रत्ययभिन्नं प्रत्ययान्तञ्च भिन्नञ्च अवयवानां प्रत्ययान्तत्वेपि समुदायस्य प्रत्ययान्तत्वाभावात् तत्रापि समुदायस्य प्रातिपदिकसंज्ञा स्यात्। एवञ्च तद्वारणार्थं वाक्यस्य संज्ञावारणार्थं किं कर्तव्यं नियमः कर्तव्यः नाम यस्मिन् समुदाये पूर्वभागः पदं तस्य चेद् भवति तर्हि समासस्यैव इति नियमः कार्यः। ఈదృశాద్ నియమే గౌరవ కుత గౌరవం కుత సంఘాతశ్చేద్భవతి తర్హి సమాసస్యైవ ఇచ్చేవాస్తు సంఘాతశ్చేద్భవతి తర్హి సమాసస్యైవ యది సముదాయస్య ప్రాతిపదిక సంజ్ఞా ప్రాప్త తర్హి సమాసస్యైవ భవతి ఇచ్చేవాస్తు తత్ర యత్ర పూర్వభాగః పదం ఇచ్చుక్తం పూర్వభాగః పదం ఇది కుతో వా వక్తవ్యం లక్షణనివే లక్షణే పదనివేశకృత పూర్వభాగ పదం ఇది చేత్ అన్యత్ ఇది పూర్వభాగ పదం ఇది న స్యాత్ తర్హి జన్మ తర్హి బహుపటవ ఇచ్చత్ర బహుపటు శబ్ద విచ్యతే బహు అత్యంతం పటు బహుపటు ఇది బహుపటు శబ్దే బహు ఇది ప్రత్యయ బహుచ్ ప్రత్యయో జాత బహుపటు శబ్దే బహుపటు శబ్ద న సమాస తద్ధిత వృత్తి సముదాయస్య చేద్భవతి తర్హి సమాసస్యైవ ఇది ఖలు ఉచ్యతే బహుపటు ఇది సముదాయస్య ఇది ప్రాతిపదిక సంజ్ఞా స్యాత్ తర్హి సమాసస్యైవ భవతి బహుపటు ఇచ్చస్య కిం భవ ఇతితో అన్న సమాస అత నాత్ర ప్రాతిపదిక సంజ్ఞా ప్రాప్నోతి అత పూర్వభాగ పదం ఇది వక్తవ్యం బహుపటు ఇది సముదాయే పూర్వభాగ బహు ఇది న పదం కింటు ప్రత్యయ అత న తత్ర నియమ ప్రవృత్తి సమాసస్యైవ ఇది నియమ న ప్రవర్తతే అతఏవ అర్ధవధాతర ప్రత్యయ ప్రాతిపదికం ఇది సూత్రేణ బహుపటు శబ్దే ప్రాతిపదిక సంజ్ఞా భవతి అన్యథా అనేన నియమేన తేన సూత్రేణ ప్రాప్తాపి ప్రాతిపదిక సంజ్ఞా న స్యాత్ సమాసస్యైవ ఇది నియమస్య కుతత్వేన అత్ర నియమే పదాంతరమపి వక్తవ్యం యది యత్ర సంఘాతే పూర్వభాగః పదంతశ్చ చేద్భవతి తర్హి సమాసస్యైవ ఇచ్యుక్తే జన్మవాన్ ఇతి విచ్యతే జన్మ అస్యాస్తి ఇది జన్మవత్ ఇతి మతు ప్రత్యయాంత జన్మవత్ ఇతి రూపం భవతి కిముచ్యతే సముదాయస్య చేద్భవతి తర్హి సమాసస్యైవ యత్ర సంఘాతే జన్మవత్ ఇతి సంఘాతే పూర్వభాగః జన్మ ఇతి పదమేవ తాదృశస్య సముదాయస్య ఇది ప్రాతిపదిక సంజ్ఞా స్యాత్ తర్హి సమాసస్యైవ భవతి జన్మవత్ ఇతి న సమాస తథా చాత్ర ప్రాతిపదిక సంజ్ఞా న స్యాత్ అతః అస్మిన్ పదాంతరమపి నివేశనీయం నామ యత్ర సంఘాతే పూర్వభాగః పదం ఉత్తరస్తు ప్రత్యయో న తస్య చేద్భవతి తర్హి సమాసస్యైవ ఇది వక్తవ్యం యస్మిన్ సంఘాతే సముదాయే పూర్వభాగః పదం భవతి ఉత్తరభాగః ప్రత్యయో న భవతి తాదృశస్య సముదాయస్య ఇది ప్రాతిపదిక సంజ్ఞా స్యాత్ తర్హ్యేవ సమాసస్య భవతి ఇది నియమ ప్రవృత్తి జన్మవత్ ఇది సముదాయే ఉత్తరభాగస్య వత్ ఇచ్చస్య ప్రత్యయత్వేన నత్ర నియమ ప్రవృత్తి సమాసస్యైవ ఇతి నియమః న ప్రవర్తతే
తేన చ జన్మవత్ ఇచ్చస్య తద్ధితాంతత్వేన కృతద్ధిత సమాసాశ్చ ఇతి సూత్రేణ ప్రాతిపదిక సంజ్ఞా సిద్ధ్యతి
తేన చ జన్మవాన్ ఇతి రూపం భవతి అతేవ నియమాకారః యత్ర సంఘాతే పూర్వభాగః పదం ఉత్తరస్తు ప్రత్యయో న తస్య చేద్భవతి తర్హి సమాసస్యైవ ఇతి వక్తవ్యం తేన వాక్యస్య న